इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि तिवारी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्र मोदी विश्वासम् अभिव्यक्तवान् यत् आगामीषु वर्षेष् भारत रूस देशयोर्मध्ये सम्बन्धाः इतोऽपि सुदृढाः भविष्यन्ति। ह्यः रूस देशीयेन राष्ट्रपतिना पुतिनेन सह संवादानन्तरम् असौ न्यगदत् यत् प्रायशः दशवर्षेष् सप्तदशवारं मेलनमिदं जातम्। इदं सम्बन्धानां प्रबलतां प्रदर्शयति। श्रीमोदी अग्रे प्रावोचत् यत् भारतं विगतेभ्यः पञ्चाशद्वर्षेभ्यः आतंकवादं सम्मुखीकरोति। प्रत्येकप्रकारकस्य आतंकवादस्य असौ निन्दामपि कृतवान्। श्रीमोदी भारत रूसयोः सहयोगस्य प्रशंसां कुर्वन् अकथयत् यत् सहयोगेन भारतीय कृषकाः उपभोक्तारश्च साहाय्यं प्राप्स्यन्ति। एतदनन्तरं श्रीपुतिनेन युक्रेन देशे संघर्षं समापयितुं समाधानान्वेषणप्रयासाय प्रधानमन्त्रिणे श्रीमोदिने धन्यतावचांसि समर्पिताः। अत्रावसरे प्रधानमन्त्रिणे श्रीमोदिने रूसदेशस्य सर्वोत्तमं प्रतिष्ठितं नागरिक सम्मानं दि आर्डर ऑफ सेंट एंड्रयू दि एपोस्टल इति प्रदत्तम्। रूसदेशीयेन राष्ट्रपतिना व्लादिमीर पुतिनेन सम्मानमिदं श्रीमोदिने प्रदत्तम्। भारत रूस देशौ त्रिंशदधिक द्विसहस्रतम वर्षं यावत् शत बिलियन डॉलर मित व्यापाराय सहमतौ जातौ। मॉस्को नगरे वार्ताहरान्त प्रतिवेदनं समर्पयन् विदेश सचिवः विनय मोहन क्वात्रा प्रोक्तवान् यत् उभयोः नेत्रोः मध्ये उपवेशनावधौ चर्चायाः प्रमुखबिन्दुः आर्थिक व्यवस्थासीत्। एतौ देशौ विविधक्षेत्रेष् सहयोगाय नवसन्धिज्ञापनपत्रेष् हस्ताक्षरमपि कृतवन्तौ, येष् पर्यावरण जलवाय् ध्रुवीयानुसन्धान निवेश व्यापार औषधीय क्षेत्राणां सहभागित्वज्ञापनपत्राणि सम्मिलितानि सन्ति। सप्त राज्यानां त्रयोदश विधानसभासनेष् अद्य उपनिर्वाचनं भविष्यति। पश्चिमबंगाल राज्ये रायगंज राणाघाट दक्षिण बागदा मानिकतला क्षेत्रेष्, हिमाचल प्रदेशे देहरा हमीरपुर नालागढ़ेष्, उत्तराखण्डे च बद्रीनाथ मंगलौरयोः उपनिर्वाचनं भविष्यति। बिहारस्य रूपौली क्षेत्रे मध्यप्रदेशस्य अमरवाड़ा क्षेत्रे तमिलनाडोः विक्रवंदी क्षेत्रे पंजाबस्य च जालंधर पश्चिम क्षेत्रे इदं उपनिर्वाचनं समनुष्ठास्यति। मतगणना च शनिवासरे निर्धारिता अस्ति। भारतीय क्रिकेट नियंत्रण मण्डलेन पूर्ववल्लक्रीडकः विश्वकप विजेता च गौतम गंभीरः वरिष्ठ पुरुष दलस्य मुख्य प्रशिक्षकः नियुक्तः। बीसीसीआई इत्यस्य सचिवः जयशाहः सामाजिक संचार संदेश पटले घोषणाम् इमां कृतवान्। श्रीगंभीरः राहुल द्रविडस्य स्थाने आगतः अस्ति। भारतर्तु विज्ञान विभागेन आगामिषु चतुर्दिवसेषु मध्य पूर्वोत्तर पूर्वीय भारतस्य केषुचित् भागेषु अत्यधिक वृष्ट्याः पूर्वानुमानं प्रकटितम् अस्ति। भारतर्तु विज्ञान विभागेन उक्तं यत् उपहिमालयीय क्षेत्रे पश्चिम बंगाले सिक्किमे बिहारे अरुणाचल प्रदेशे असमराज्ये मेघालये च एतादृशी परिस्थिति अस्य मासस्य द्वादश दिनांक पर्यन्तं भविष्यति। महिलानां क्रिकेट प्रतिस्पर्धायां चेन्नई नगरस्य एमए चिदम्बरम क्रीडांगणे 20-प्रति-20 श्रृंखलायाः अन्तिमे चक्रके द्वन्द्वे भारतीय दलेन दक्षिण अफ्रीका दलं 10 स्तोभैः पराजितम् इति वार्ताः।